नमस्सर्वेभ्यः. मङ्गलश्लोकः. ओम् गुणातीतोऽपि सः त्रिगुणसचिवस्तक्षरमया त्रिमूर्तिर्यसर्गस्थितिविलयकर्माणि सन्ते कृपापारावार परमगति एकस्त्रिजगतां नमस्तस्मै कस्मै चिदमितमहिम्ने पुरविदे. अस्तु, तर्हि गतवर्गे अस्माभिः तत्र क्रमप्राप्तां पृथिवीं, नाम क्रमप्राप्तं तत्र पृथिवीद्रव्यस्य लक्षणस्य अध्ययनं किञ्चिदिव कृतं. तत्र गन्धसमानाधिकरणम् इत्यादिकम् अस्माभिः दृष्टं. तदनन्तरं तत्र पृथिव्याः विभागः कृतः. तत्र मूलग्रन्थे किमुक्तम् इत्युक्ते, पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् शरीरेन्द्रियविषयभोगात् तम् आत्मनो भोगायतनं शरीरम् इति उक्तम्. तदनन्तरं तत्र शरीर इन्द्रिय इति उक्तमिति कृत्वा इन्द्रियस्य लक्षणं कृतम् अत्र ग्रन्थे. अस्माभिः तत् आरब्धं गतवर्गे. अद्य तत्र खण्डशः पश्यामः. तत्र लक्षणं किम् आसीत् इत्युक्ते, तत्र चतुर्विंशतितमे पुटे आसीत् अस्ति, शब्देतरोद्भूतविशेषगुणनाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्. इन्द्रियं न जातिः इति अस्माभिः दृष्टं. कुतः इति चेत्, तत्र पृथिवीत्वादिना सौकर्यात् इन्द्रियत्वं न जातिः इति तु अस्ति एव. अतः जातिघटितं लक्षणं कर्तुं न शक्यते. लक्षणं कथं कृतम् इत्युक्ते, शब्देतरोद्भूतविशेषगुणनाश्रयत्वे सति ज्ञानकारणमनसंयोगाश्रयत्वं. खण्डसः पश्यामः, परन्तु तत्र किञ्चिदिव भिन्नरीत्या पश्यामः. नव्यनैयायिकानां शैली किं भवति इत्युक्ते, तत्र लक्षणम् उपस्थापयन्ति, तदनन्तरं दलसार्थक्यचिन्तनं कुर्वन्ति. तत्र विशेषणदलस्य किं प्रयोजनं, विशेष्यदलस्य किं प्रयोजनं, विशेष्यदलघटक अन्यपदस्य अन्यपदस्य किं तत्र प्रयोजनं, विशेषणदलघटकानां पदानां किं किं प्रयोजनम् इत्यादिकं सर्वमपि तत्र दलसार्थक्यचिन्तनरीत्या ते सर्वम् इति कुर्वन्ति. परन्तु तादृशकरणे किं भवति इत्युक्ते, कदाचित् स्पष्टं ज्ञानं न जायते. तत्र दलसार्थक्येव वयं व्यापृताः भवामः. कदाचित् सम्यक् यदा तत्र दीर्घं लक्षणं भवति, क्लिष्टं च लक्षणं भवति किञ्चिदिव, तत्र दलसार्थक्यजालमिव भाति. तत्र कदाचित् सम्यक् ज्ञानं न जायते इति कृत्वा अत्र किं कुर्मः इत्युक्ते, वयं स्वयमेव लक्षणस्य रचनां कुर्मः, लक्षणं कुर्मः स्वयमेव. तत्र लघुलक्षणम् आरभ्य परिष्कारादिकं कृत्वा तदनन्तरं यत् लक्षणं प्राप्यते, तस्य लक्षणस्यापि कोऽपि दोषो अस्ति वा न वा इति परीक्षणं कृत्वा तदनन्तरं पुनः परिष्कारं कृत्वा, वयं शब्दे तरोद्भूतविशेषगुण अनाश्रयत्वे सति ज्ञानकारणमनसमेव आश्रयत्वम् इति एतत् लक्षणं यत् वर्तते, तावत्पर्यन्तं प्राप्तुं शक्नुमः वा न वा इति पश्यामः, प्रयत्नं कुर्मः. अस्तु, तर्हि अत्र प्रथमं तावत् वक्तव्यं भवति, अत्र लक्षणमस्ति भवतु नाम शब्देतरोद्भूतविशेषगुणनाश्रयत्वे सति ज्ञानकारणमनसंयोगाश्रयत्वम् इति लक्षणम् अस्ति. एतस्य लक्षणस्य लक्ष्यं किम् इत्युक्ते, इन्द्रियाणि एव नाम मनः, अन्तरिन्द्रियं, चक्षुरिन्द्रियं, घ्राणेन्द्रियं, रसनेन्द्रियं, त्वगेन्द्रियं, श्रोत्रेन्द्रियम्, एतानि एव लक्ष्यभूतानि, एतस्य लक्षणस्य लक्ष्यभूतानि. अस्तु, तर्हि इदानीम् अस्माभिः प्रक्रिया दृष्टा. नैयायिकानां चिन्तने ज्ञानस्य उत्पत्तौ सर्वत्रैव प्रक्रिया का इत्युक्ते, प्रथमं तावत् आत्मा मनसा संयुज्यते सर्वदैव यदा ज्ञानं संयुज्यते, मनः इन्द्रियेण, इन्द्रियम् अर्थेन ततः ज्ञानम् उत्पद्यते इति चिन्तनरीतिः वर्तते. कोऽपि आगतो वा मध्ये? नमस्कारः महोदय. तादृशरीतिः चिन्तनरीतिः वर्तते. आत्ममनसा संयुज्यते नाम आत्ममनसंयोगो जायते, मनः इन्द्रियेण संयुज्यते नाम मनसः इन्द्रियेण सह संयोगः जायते, तदनन्तरम् इन्द्रियस्य संयोगः जायते अर्थेन सह, विषयेण सह, ततः ज्ञानम् उत्पद्यते। इदानीं तत्तु सामान्यचिन्तनम्। इदानीं पश्यामः, उदाहरणं स्वीकुर्मः। उदाहरणं किम् इत्युक्ते, अस्माकं पुरतः अस्ति सुन्दरं पुष्पं, तत्र पुष्पस्य रक्तं पुष्पं वदामः, रक्तं पुष्पम् अस्माकं पुरतः अस्ति। तर्हि रक्तपुष्पस्य रक्तरूपस्य ज्ञानं नाम तदा पुष्पस्य रक्तरूपज्ञानं जायते इति चिन्तयामः। तत्र किं भवति, प्रक्रियां दृष्ट्वा वयं तत्र कथम् अन्वयः भवति, समन्वयः कथं भवति इति पश्यामः। तत्र रक्तरूपस्य ज्ञानं जातं, कथं जातम् इत्युक्ते आत्मा मनसा संयुज्यते मनः इन्द्रियेण। अत्र इन्द्रियं किम् इत्युक्ते मनः चक्षुरिन्द्रियेण संयुज्यते। मनः इन्द्रियेण संयुज्यते इत्युक्ते मनः चक्षुरिन्द्रियेण संयुज्यते। इन्द्रियं पुनः अर्थेन संयुज्य, अत्र अर्थः कः इत्युक्ते रक्तरूपं, रक्तरूपम् अर्थः अत्र विषयः। तर्हि इन्द्रियं तु साक्षात् रक्तरूपेण सह न संयुज्यते, तत्तु केवलम् उपचार एव। कथं संयुज्यते इत्युक्ते, तत्र इन्द्रियं पुष्पेन सह संयुज्यते, पुष्पे रक्तरूपस्य समवायः वर्तते, रक्तरूपं समवेतं वर्तते पुष्पे। तर्हि संयुक्तसमवेतत्वं रूपे वर्तते इति कृत्वा अत्र संसर्गः, अत्र संयुज्यते इत्युक्ते तत्र संसर्गी भवति, नाम तत्र संसर्गः भवति रूपस्य इन्द्रियस्य, द्वयोः संसर्गः भवति इत्येव अर्थः। तदनन्तरं पश्यामः तत्र सर्विधाः संसर्गाः भवन्ति, यदा प्रत्यक्षज्ञानं जायते तदा सर्विधाः संसर्गाः भवन्ति, तेषु अन्यतमः एषः संसर्गः संयुक्तसमवेतत्वम् एव तत्र संसर्गः, संयुक्तसमवेतत्वं तत्र रूपे वर्तते इति अर्थः। अस्तु, तर्हि तथा तादृशः संसर्गः भवति इति कृत्वा रूपज्ञानं, तत् भवति रूपज्ञानम्। इदानीं पश्यामः रसज्ञानं कथं जायते,
एकः प्रश्नः अत्र, शरीरम् इति कदा आगच्छति, यतोहि शरीरावच्छेद आत्मनि एव उत्पद्यते एतत् सर्वं खलु ज्ञानम्।
आम् सत्यमेव, तत्र अर्थः कः इत्युक्ते, यदि शरीरं नास्ति चेत् ज्ञानं नैव भवति इति अर्थः। नाम आत्मा विभुपदार्थः, विभुद्रव्यं, तस्य विभुत्वा सर्वव्यापी भवति। इदानीं शरीरम् अस्ति अमेरिकादेशे अथवा भारतदेशे अथवा कुत्रापि शरीरम् अस्ति, परन्तु आत्मा तु सर्वत्र अस्ति, आत्मा सर्वत्र अस्ति, परन्तु ज्ञानं सर्वत्र न जायते। कुत्र जायते ज्ञानम् आत्मनि इत्युक्ते, यत् शरीरावच्छिन्न आत्मा तत्रैव ज्ञानं जायते इति अर्थः। भगिनी तदेव प्रश्नः आसीत् वा?
हा, इत्युक्ते यथा आत्ममनसंयोगः तथैव आत्मशरीरसंयोगः प्रथमं जायेत इति किल?
आम् सत्यं सत्यम्, आत्म तत्र शरीरसंयोगः अपि अस्ति एव, तत्तु सर्वदैव अस्ति, परन्तु आत्ममनसंयोगः यथा सर्वथैव तत्र संयोगः भवति इति अर्थः नास्ति। कुतः इति चेत् तत्र अनन्तरं पुनः आगच्छति, तदा यदा ज्ञानं न जायते नैयायिकानाम् इत्युक्ते निद्रावस्थायां यदा ज्ञानं न जायते तदा मनः आत्मसंयोगः
नास्ति।
तत् अनन्तरं
पश्यामः।
तर्हि अत्र आत्मा एव, यत्र आत्ममनस्संयोगः इति वदामः तत्र आत्मनः एव तत्र विशेषणं शरीरावच्छिन्न आत्मा इति वक्तव्यं।
सत्यमेव सत्यमेव, तदेव। हा अस्तु, तर्हि इदानीं रसस्य उदाहरणं नाम तत्र रासनप्रत्यक्षज्ञानं, रासनप्रत्यक्षं नाम तत्र पश्यामः, तत् चिन्तयामः, आम्रफलमस्ति, मधुरम् आम्रफलमस्ति, तर्हि तस्य आम्रफलस्य माधुर्यज्ञानं नाम मधुरतायाः माधुर्यस्य ज्ञानं रासनप्रत्यक्षं, रसनेन्द्रियजन्यं प्रत्यक्षं कथं भवति इत्युक्ते, पुनः तादृशीमेव रीतिमाद्रे आत्मा मनसा संयुज्यते, मनः इन्द्रियेण संयुज्यते, मनः इन्द्रियेण इत्युक्ते रासने रसनेन्द्रियेण सह संयुज्यते, पुनः रसनेन्द्रियम् आम्रफलेन सह संयुज्यते, आम्रफले रसस्य समवायः वर्तते, अत्रापि संयुक्तसमवेतत्वमेव सम्बन्धः, तथा ज्ञानं पुनः अत्र माधुर्यज्ञानं तथा जायते। एवं रीत्या तत्र विवरणं कर्तुं शक्यते, नाम तत्र सामान्यरूपेण उक्तमासीत्, इदानीं तत्र उदाहरणादिकं दृष्ट्वा वयं इतोपि स्पष्टं भवेत् इति कृत्वा तत् उक्तम्। आत्मा मनसा संयुज्यते, मनः इन्द्रियेण इत्युक्ते तत्तत् इन्द्रियेण सह तत्तत् ज्ञानं प्रति तत्तत् इन्द्रियसंयोगः आवश्यकः इति अर्थः। अस्तु, तर्हि इदानीं वयं जानीमः सर्वथैव तत्र मनसंयोगः आवश्यकः सर्वथैव, सर्वत्र यदा ज्ञानं जायते प्रत्यक्षज्ञानं सर्वत्र तत्र मनसंयोगः आवश्यकः। तर्हि इदानीं तत्र इन्द्रियमनसंयोगः सर्वथैव भवति, इन्द्रियमनसंयोगः सर्वथैव भवति इत्युक्ते इदानीं लक्षणं कुर्मः, किं कुर्मः इदानीं लघुलक्षणं कुर्मः, प्रारम्भिकं लक्षणं, दोषग्रस्तं लक्षणं, परन्तु आरम्भस्तु करणीयः। किं वदामः इत्युक्ते इदानीं मनसंयोगाश्रयत्वम् इन्द्रियत्वम् इति प्रारम्भिकं लक्षणं कुर्मः। मनसः इन्द्रियेण सह सर्वदैव संयोगः भवति इत्युक्ते मनसंयोग यः मनसः यः संयोगः तस्य आश्रयत्वं सर्वेषु इन्द्रियेषु वर्तते। एतावत्पर्यन्तं दृष्टान्तद्वारा अस्माभिः दृष्टं। तर्हि मनसः संयोगस्य द्विनिष्ठत्वात् संयोगः द्विनिष्ठः अत्र यः मनसंयोगः सः इन्द्रियेषु अपि वर्तते सर्वेषु इन्द्रियेषु, मनसंयोगः मनसि एव स्वयमपि वर्तते इति कृत्वा तत्र मनसंयोग आश्रयत्वम् इन्द्रियस्य लक्षणम् इति वदामः। परन्तु तत्र परीक्षा करणीया, नाम तत्र त्रिधा अस्य शास्त्रस्य प्रवृत्तिः इति तत् भाष्ये उक्तं, भाष्यायनभाष्ये उद्देशलक्षणं परीक्षा। इदानीं लक्षणं कृतं चेत् परीक्षापि करणीया भवति, एतत् लक्षणं युज्यते वा न वा, लक्ष्यम् इन्द्रियम् अस्ति, लक्षणम् इदानीं कृतं मनसंयोगाश्रयत्वं लक्षणं कृतं, तत् लक्षणं युज्यते वा न वा, को वा अर्थः इत्युक्ते अतिव्याप्ति अव्याप्ति असम्भवदोषग्रस्तम् अस्ति वा न वा एतत् लक्षणम् इति प्रश्नः। इदानीं मनसंयोग आश्रयत्वम् इति एतावन्मात्र लक्षणकरणे अत्र दोषाः सन्ति एव। पश्यामः कः दोषः इत्युक्ते मनसंयोग आश्रयत्वं न केवलम् इन्द्रियेषु वर्तते, मनसंयोग आश्रयत्वम् आत्मनि अपि वर्तते। कुतः इति चेत् तत्र प्रक्रियायां किम् आसीत्, आत्मा मनसा संयुज्यते, मनः इन्द्रियेण, तर्हि मनसंयोगः इत्युक्ते मनसः संयोगः यत्र यत्र वर्तते तत्सर्वम् अन्तर्भवति, तर्हि मनसः संयोगः आत्मनि अपि वर्तते। तर्हि अत्र आत्मनि अतिव्याप्ति, अतिव्याप्ति नाम किम् इत्युक्ते मनसंयोग आश्रयत्वम् इत्येतावन्मात्र लक्षणं कृतं चेत् आत्मापि इन्द्रियं भवति, अतिव्याप्तं भवति, आत्मापि इन्द्रियं नास्ति। परन्तु एतत् लक्षणम् इन्द्रियस्य लक्षणं स्वीकुर्मः चेत् आत्मापि इन्द्रियम् इति आपतति, अतिव्याप्तिदोषग्रस्तम्, अतिप्रशक्तम् इदं लक्षणं। तर्हि इदानीं परिष्कारः करणीयः, यथा दोषस्य निरासः भवेत्, यथा दोषः निरस्त अपाकृतो वा भवेत्, तथा लक्षणस्य इदानीं परिष्कारः करणीयः। तर्हि किं कुर्मः इदानीं, सरलमस्ति उपायः, अत्यन्तं सरलम् अस्ति। किम् इत्युक्ते इदानीं सरलरूपेण वदामः, आत्मभिन्नत्वे सति मनसंयोगाश्रयत्वं तदपि वक्तुं शक्यते, परन्तु तथा करणे किं भवति इत्युक्ते तत्र नैयायिकानाम् अन्यदपि चिन्तनं वर्तते, नाम मनसः त्वक् भिन्नं, त्वगिन्द्रियं भिन्नम्। कदाचित् त्वगिन्द्रियमपि वयं त्वक् इति वदामः उपचार एव केवलं, तत्र लक्षणा एव, परन्तु त्वक् भिन्न पदार्थः, मनः इन्द्रियं, नाम त्वगिन्द्रियं तत्र भिन्नम्। तत्र नैयायिकानां चिन्तनं किं वर्तते इत्युक्ते मनसः त्वचा सह संयोगोऽपि आवश्यकः ज्ञानार्थम् इति तेषां चिन्तनं वर्तते। केचन नैयायिकाः तथा वदन्ति, तत्र यदा मुक्तावलियादिग्रन्थान् वयं पठामः तत्र सर्वत्रापि तत्र प्रपञ्चितं वर्तते, परन्तु इदानीं केवलं तत्र वदामः तत्र त्वगिन्द्रियेण सह अपि त्वचा सह अपि संयोगः आवश्यकः तत्र प्रत्यक्षयानार्थम् इति नैयायिकानां चिन्तनमस्ति। यदि तादृशं चिन्तनम् अस्ति चेत् तत्र त्वचि अपि त्वक्षु अपि अतिव्याप्तिः भवति, न केवलम् आत्मनि। कुतः इति चेत् मनसंयोगः आवश्यकः, नाम मनत्वक्संयोगः आवश्यकः ज्ञानार्थम्। अतः यदि भिन्नत्वघटितं लक्षणं कुर्मः चेत् किं करणीयं भवति इत्युक्ते आत्मभिन्नत्वे सति त्वभिन्नत्वे सति मनसंयोग आश्रयति, तर्हि लाघवं न भवति, गौरवमेव भवति। अतः किं क्रियते इत्युक्ते तादृशं भिन्नत्वघटितं लक्षणं न क्रियते, भिन्नरूपेण लक्षणं क्रियते। किं क्रियते इत्युक्ते इदानीं किं कुर्मः, यथा वा आत्मनः व्यावृत्तिः भवेत्, यथा वा आत्मा तत्र आत्मनि न अतिव्याप्तिः भवेत्, यथा वा त्वचि त्वक्षु अतिव्याप्तिः न भवेत्, किं कुर्मः, उपायः कः इत्युक्ते इदानीं पश्यामः आत्मनि विद्यमानं गुणं स्वीकुर्मः अथवा त्वक्षु विद्यमानं गुणं स्वीकुर्मः, तदनाश्रयत्वं वदामः। आत्मभिन्नत्वे सति इति न वदामः, त्वभिन्नत्वे सति इति न वदामः, परन्तु द्वयोः वर्तमानं गुणं स्वीकृत्य तादृशगुण अनाश्रयत्वम् इति वदामः इदानीं। तदेव इदानीं तादृश तत्र आत्मनि विद्यमानः कः गुणः विशेषगुणः, आत्मनि विद्यमानः विशेषगुणः कः इत्युक्ते तत्र अस्माकं श्लोकः आसीत्, कः आसीत् श्लोकः इत्युक्ते रूपं गन्धो रसस्पर्श स्नेहसांसिद्धिको द्रव बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणः इति विशेषगुणाः आसन्। विशेषगुणः किमर्थं स्वीकरणीयम् इत्युक्ते अन्यथा तत्र पुनः संयोगोपि अन्तर्भवति इति कृत्वा विशेषगुणः स्वीकरणीयं भवति, तदनन्तरं पश्यामः। परन्तु इदानीं तत्र आत्मनि विद्यमानं विशेषगुणम् अथवा त्वचि त्वक्षु विद्यमानं विशेषगुणं स्वीकृत्य किं वदामः इत्युक्ते विशेषगुण अनाश्रयत्वे सति मनसंयोगाश्रयत्वम् इदानीं लक्षणं कुर्मः। विशेषगुण अनाश्रयत्वे सति कुतः इति चेत् तत्र विशेषगुणाः त्वग् नाम तत्र पृथिवी, त्वग् नाम पृथिवी, पृथिव्यामपि विशेषगुणाः भवन्ति एव, रूपं गन्धो रसस्पर्श स्नेहसांसिद्धिको द्रव रूपं पृथिव्यां वर्तते, तथैव आत्मनि विशेषगुणः वर्तते एव, आत्मनि बुद्ध्यादि विशेषगुणाः बुद्ध्यादिभावनां वा बुद्धिः सुखदुःखेच्छाद्वेषप्रयत्न धर्माधर्म इत्यादि गुणाः ये सन्ति ते विशेषगुणाः आत्मविशेषगुणाः। तर्हि विशेषगुण अनाश्रयत्वे सति मनसंयोगाश्रयत्वं यदा वदामः तेन किं भवति इत्युक्ते इदानीं न आत्मनि अतिव्याप्तिः भवति न त्वक्षु त्वचि अतिव्याप्तिः भवति। परन्तु अत्रापि पुनः दोषः, अत्र दोषः कः इत्युक्ते इदानीम् इन्द्रियस्य एव अव्याप्तिः भवति, अतिव्याप्तिदोषनिवारणार्थम् अस्माभिः तत्र विशेषणदलं उपात्तं, विशेषणदलं विशेषगुण अनाश्रयत्वे सति इति विशेषणदलम् उपात्तं स्वीकृतम् अङ्गीकृतम्। परन्तु तेन किं जायते इत्युक्ते इदानीम् अस्माकं लक्ष्यभूतानि इन्द्रियाणि एव बहिष्कृतानि भवन्ति। कथम् इति इत्युक्ते तत्र यथा विशेषगुण आत्मनि वर्तते, यथा विशेषगुणः त्वक्षु वर्तते, तथैव विशेषगुणः गुणाः इन्द्रियेषु अपि वर्तन्ते, वर्तन्ते वा न वा, तत्र ग्राणेन्द्रियं तत्र पार्थिवम् इन्द्रियं पृथिवी एव पार्थिवम् इन्द्रियं, तद् पृथिवी पृथिव्यां ये विशेषगुणाः भवन्ति ते विशेषगुणाः ग्राणेन्द्रिये अपि भवन्ति, तथैव चक्षुरिन्द्रिये रसनेन्द्रिये त्वगेन्द्रिये श्रोत्रेन्द्रिये। अतः किं जायते इत्युक्ते विशेषगुण अनाश्रयत्वे सति इति लक्षणकरणे इन्द्रियाणि एव न अन्तर्भूतानि भवन्ति, अव्याप्तिदोषग्रस्तम् इदं लक्षणं भवति। कुतः इति चेत् तत्र विशेषगुण अनाश्रयत्वम् आवश्यकं, परन्तु विशेषगुण आश्रयत्वमेव वर्तते इन्द्रियेषु, अनाश्रयत्वं नास्ति इति कृत्वा इदानीम् इन्द्रियाणि बहिष्कृतानि भवन्ति। अतः पुनः अत्रापि तत्र परिष्कारः करणीयः। कः परिष्कारः इत्युक्ते इदानीं भोः विशेषगुणाः आत्मनि सन्ति, विशेषगुणाः त्वक्षु त्वचि अपि सन्ति, विशेषगुणाः इन्द्रियेषु अपि वर्तन्ते, परन्तु किं तत्र इन्द्रियेषु विद्यमानाः ये विशेषगुणाः तेषां किञ्चिदिव वैशिष्ट्यं वर्तते वा, तेषां कश्चन भेदः वर्तते वा, येन तद् वैशिष्ट्यनिवेशनपुरस्सरं परिष्कारं वयं कर्तुं शक्नुमः इत्युक्ते तत्र वैशिष्ट्यं वर्तते एव। कीदृशं वैशिष्ट्यं वर्तते तेषु विशेषगुणेषु, ये विशेषगुणाः इन्द्रियेषु वर्तन्ते तेषां वैशिष्ट्यं कीदृशम् इत्युक्ते ते अनुद्भूताः भवन्ति. ते रूपं वर्तते ग्राणेन्द्रिये, परन्तु तद् रूपम् उद्भूतरूपं न भवति, अनुद्भूतं रूपं भवति. अनुद्भूतं नाम प्रत्यक्ष अयोग्यम्, उद्भूतं नाम प्रत्यक्षयोग्यम्, अनुद्भूतं नाम प्रत्यक्ष अयोग्यम्. तर्हि इन्द्रियेषु वर्तमानगुणाः अनुद्भूताः भवन्ति, इन्द्रियेषु वर्तमानाः विशेषगुणाः अनुद्भूताः भवन्ति. तर्हि इदानीं किं कुर्मः, यथा वा इन्द्रियाणां बहिष्कारः न भवेत् तादृशं पुनः विशेषणम् अत्र निवेशयामः. किं तत् विशेषणम् इत्युक्ते, इदानीं वदामः उद्भूतविशेषगुण अनाश्रयत्वे सति इति वदामः. उद्भूतविशेषगुण अनाश्रयत्वे सति मनसंयोगाश्रयत्वम्. इदानीं किं भवति, उद्भूतविशेषगुण अनाश्रयत्वे सति मनसंयोगाश्रयत्वम् इति वदामः. इदानीम् इन्द्रियेषु अव्याप्तिः भवति वा न वा इति प्रश्नः. इन्द्रियेषु अव्याप्तिः भवति वा, पश्यामः चक्षुरिन्द्रियं पश्यामः. अस्माकं लक्षणं किमस्ति, उद्भूतविशेषगुण अनाश्रयत्वे सति मनसंयोगाश्रयत्वम्. इदानीं प्रथमं पश्यामः किं विशेषणदलस्य समन्वयः भवति वा तत्र इत्युक्ते, उद्भूतविशेषण विशेषगुण अनाश्रयत्वं वर्तते वा न वा चक्षुरिन्द्रिये इत्युक्ते वर्तते एव. पुरा इति चेत् तत्र ये विशेषगुणाः सन्ति तत्र रूपादिकं, ते गुणाः अनुद्भूताः एव चक्षुरिन्द्रिये, उद्भूतविशेषगुणाः न भवन्ति. यतोहि उद्भूतविशेषगुणाः न भवन्ति अतः किं प्राप्यते इत्युक्ते अनुद्भूतविशेषगुणाः, नाम उद्भूतविशेषगुण अनाश्रयत्वमेव वर्तते. आश्रयत्वं तु केवल अनुद्भूतगुणानाम्, अनुद्भूतविशेषगुणानाम् आश्रयत्वम्, उद्भूतविशेषगुणानाम् अनाश्रयत्वमेव, अनाश्रयत्वमेव अस्ति इति कृत्वा इदानीं चक्षुरिन्द्रिये समन्वयः, घ्राणेन्द्रिये अपि समन्वयः, रसनिन्द्रिये अपि समन्वयः, त्वगिन्द्रिये अपि समन्वयः. परन्तु किम्, एतत् लक्षणं श्रोत्रेन्द्रिये समन्वेति वा न वा, तत्र लक्षणस्य समन्वयः भवति वा न वा इत्युक्ते पश्यामः. उद्भूतविशेषगुण अनाश्रयत्वं श्रोत्रेन्द्रिये वर्तते वा न वा इत्युक्ते पश्यामः, वर्तते वा न वा श्रोत्रेन्द्रिये. किं श्रोत्रेन्द्रियं नाम किं, श्रोत्रेन्द्रियं नाम कर्णसस्कुल्यवचिन्न आकाशः, कर्णसस्कुल्यवचिन्न आकाशः, आकाशः एव आकाशः अस्ति चेत् आकाशे तु केवलं शब्दः, उद्भूतशब्दः भवति आकाशः, आकाशे प्रत्यक्षयोग्यशब्दः भवति, शब्दस्य प्रत्यक्षं ज्ञानं भवति अस्माकं. यद् आकाशनिष्ठः शब्दः यः, तस्य प्रत्यक्षज्ञानम् अस्माकं भवति. अतः प्रत्यक्षयोग्य आकाशविशेषगुणः शब्दः श्रोत्रेन्द्रिये वर्तते, उद्भूतशब्द श्रोत्रेन्द्रिये वर्तते, शब्दोऽपि विशेषगुणः. तर्हि उद्भूतविशेषगुण अनाश्रयत्वं न सङ्गच्छते, उद्भूतविशेषगुण आश्रयत्वमेव वर्तते श्रोत्रेन्द्रिये, उद्भूतविशेषगुण अनाश्रयत्वं न वर्तते इति कृत्वा इदानीम् इतोपि लक्षणस्य परिष्कारः आवश्यकः. तत्र पञ्च इन्द्रियाणि अन्तर्भूतानि भवन्ति, परन्तु श्रोत्रेन्द्रियम् इतोपि बहिष्कृतमेव वर्तते इति कृत्वा इदानीम् इतोपि लक्षणपरिष्कारः करणीयः. अत्र किं कुर्मः इत्युक्ते, इदानीं किं वदामः, शब्द अस्माकं समस्याबीजं, समस्याबीजभूतः शब्दः. तर्हि इदानीं किं वदामः इत्युक्ते, भवतु नाम इदानीं किं कुर्मः, लक्षणपरिष्कारः विशेषणदले पुनः इतोपि वैशिष्ट्यं निवेशनीयं. किं तद् वैशिष्ट्यम् इत्युक्ते, शब्देतर उद्भूतविशेषगुण अनाश्रयत्वे सति इति वदामः. शब्देतर नाम शब्दभिन्न उद्भूतविशेषगुण अनाश्रयत्वे सति मनसंयोगाश्रयत्वम् इति वदामः. शब्देतर नाम शब्दभिन्न. इदानीं पश्यामः श्रोत्रेन्द्रिये लक्षणस्य समन्वयः भवति वा इत्युक्ते भवत्येव. कथं श्रोत्रेन्द्रिये किं शब्देतर उद्भूतविशेषगुणानाम् आश्रयत्वं वर्तते वा, रूपादिकम् आकाशे वर्तते वा न वर्तते. तर्हि रूपादिकं तत्र सर्वमपि शब्देतर उद्भूतविशेषगुणभूतम्, अतः श्रोत्रेन्द्रिये शब्देतर उद्भूतविशेषगुणानाम् अनाश्रयत्वमेव वर्तते. अतः इदानीं श्रोत्रेन्द्रिये अपि लक्षणस्य समन्वयः. इदानीं पश्यामः चक्षुरिन्द्रियसमन्वयः भवति वा न वा भवति वा कुधा इति तत्र उद्भूतगुणाः एव न भवन्ति उद्भूतगुणाः एव न भवन्ति चेत् शब्दे तद् उद्भूतगुणाः नितरां न भवन्ति अत्र उद्भूतगुणाः न भवन्ति चेत् इदानीं सङ्कोचितः शब्देतर इत्युक्ते इतोपि न्यूनः तर्हि न्यूना गुणाः तु नितरां न भवत्येव शब्देतर उद्भूतविशेषगुण अनाश्रयत्वमेव चक्षुरिन्द्रिय वर्तते घ्राणेन्द्रिय वर्तते मनसि वर्तते रसनेन्द्रिय वर्तते त्वयेन्द्रिय वर्तते श्रोत्रेन्द्रिय वर्तते इति कृत्वा इदानीम् अव्याप्तिदोष दुष्टं लक्षणम् इदं न भवति परन्तु इदानीमपि पश्यामः किमुक्तम् इत्युक्ते मनसंयोगाश्रयत्वम् इत्युक्तं मनसंयोगाश्रयत्वम् इत्युक्तं परन्तु इदानीमपि अतिव्याप्तिदोषग्रस्तम् इदं लक्षणं भवति कुत्र अतिव्याप्तिः भवति इत्युक्ते काले अतिव्याप्तिः भवति कथम् इत्युक्ते तत्र कालस्य विभुत्वा कालस्य सर्वाधारता अस्ति मनसंयोगः काले वर्तते एव मनसंयोगः काले वर्तते एव तर्हि मनसंयोग आश्रयत्वं काले आगतं मनसंयोग आश्रयत्वं काले आगतं काले उद्भूतविशेषगुणाः शब्देतर उद्भूतविशेषगुणाः अपि न सन्ति काले तर्हि शब्देतर उद्भूतविशेषगुणानाश्रयत्वं काले अस्ति मनसंयोग आश्रयत्वं काले अस्ति इति कृत्वा इदानीं कालोपि इन्द्रियम् इति आपतति एतादृशं लक्षणं कुर्मः चेत् कालोपि इन्द्रियम् इति आपतति तर्हि इदानीं किं कुर्मः इत्युक्ते तत्रापि किञ्चिदिव तत्र विशेष्यदले किञ्चित् वैशिष्ट्यं तत्र निवेशनीयं किं तत् वैशिष्ट्यम् इत्युक्ते ज्ञानकारणमनसंयोगाश्रयत्वम् इति वदामः नाम मनसः तत्र कालेन सह यः संयोगः तत्र मनसंयोगः काले वर्तते तस्य ज्ञानकारणत्वं न विद्यते केवलं मन इन्द्रिय मन आत्मा द्वयोः एव तत्र संयोगस्य संयोगयोः कारणत्वं ज्ञानकारणत्वं वर्तते परन्तु तत्र मनसः यः संयोगः काले वर्तते तस्य ज्ञानकारणत्वं नास्ति इति कृत्वा इदानीं ज्ञानकारणमनसंयोगाश्रयत्वम् इति परिष्कारः क्रियते चेत् अत्र अतिव्याप्ति अव्याप्ति असम्भवदोषदुष्टं लक्षणम् इदं न भवति इदानीं निर्दुष्टं लक्षणं प्राप्यते तदेव अत्र ग्रन्थे निवेशितं वर्तते ग्रन्थे यत् लक्षणमस्ति तत् लक्षणम् अस्माभिः एतावत्पर्यन्तं प्राप्तं ग्रन्थे किमस्ति इत्युक्ते शब्दे तरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनसंयोगाश्रयत्वम् इन्द्रियत्वम् इति उक्तम् अस्तु अत्र बहु किमपि उक्तं परन्तु किं कुर्मः इत्युक्ते क्रमेण पश्यामः कियत्पर्यन्तं तत्र अवगतम् अथवा पुनः चर्चा करणीया भवति इति पश्यामः इदानीं क्रमेण रत्ना भगिनी किञ्चित् प्रयत्नं करोति वा
अस्तु महोदय अस्तु अत्र प्रथमं ज्ञानं कथम् उद्भवति इति उक्तम् आत्मामनसंयोगः प्रथमं भवति अनन्तरं मन इन्द्रियसंयोगः अनन्तरम् इन्द्रिय अर्थसंयोगेन ज्ञानम् उद्भवति इति उक्तम् अनन्तरं उदाहरणं त्यजामि प्रायः अनन्तरं अस्तु इदानीम् इन्द्रियस्य लक्षणं किम् इति अस्माकं चर्चा अस्ति प्रथम बिन्दुः आसीत् यदि मनसंयोगस्य आश्रयत्वं सर्वेषु इन्द्रियेषु वर्तते तद् वयं जानीमः मनसि अपि अर्थते वर्तते मनसंयोगः द्विनिष्ठः अस्ति मनसंयोगस्य आश्रयत्वम् आत्मनि अपि वर्तते अतः यदि मनसंयोगस्य आश्रयत्वम् इन्द्रियस्य लक्षणम् इति वदामः चेत् तत्र अतिव्याप्तिदोषः भवति इति अतः तत् तावदेव पर्याप्तं नास्ति इन्द्रियस्य लक्षणस्य विषये अनन्तरं द्वितीयबिन्दु स्वीकृतम् आसीत् तदस्ति आत्मभिन्नत्वे सति मनसंयोग आश्रयत्वम् इति वदामः चेत् तत्र मम अवगमनमस्ति त्वगिन्द्रियम् अपि इत्युक्ते मनसंयोगः त्वगिन्द्रिये अपि भवति अपि च त्वचि अपि भवति.
आम् आम् तत्र किञ्चिदेव वदामि. तत्र नैयायिकानां किं चिन्तनम् इत्युक्ते तत्र अस्माकं तत्र प्रक्रिया अस्माभिः उक्ता. प्रक्रियायां किमासीत् इत्युक्ते आत्मा मनसा सञ्चिन्तते मनः इन्द्रियेण इन्द्रियमर्थेन इत्यादिकम् उक्तं. परन्तु तत्र किम् अनुक्तम् अनुक्तः भागः वर्तते इत्युक्ते सर्वदैव तत्र मनसः त्वचा संयोगः आवश्यकः ज्ञानार्थम् इत्यपि वर्तते. तत् न उक्तं तत्र इति कृत्वा त्वचा सह संयोगोऽपि सर्वदैव अस्ति इति कृत्वा इदानीम् आत्मभिन्नत्वे सति त्वग्भिन्नत्वे सति इति निवेशनीयं भवति.
सर्वदा इत्युक्ते महोदय यदि त्वचा त्वगिन्द्रियेण अस्माकं ज्ञानम् उद्भवति तदा
त्वचा सह न तथा नास्ति.
ओ
आमां सर्वविधज्ञानं प्रति त्वचा सह मनसः संयोगो आवश्यकः इति नैयायिकानां केचन नैयायिकदेशिनां चिन्तनं वर्तते तादृशम्.
ओ अस्तु
महोदय तत्र तर्कः कः महोदय?
तर्कः न जानामि भगिनि. तत्र किञ्चित् चिन्तनं करणीयं किमर्थं तथा चिन्तनं कुर्वन्ति. कदाचित् किं भवति इत्युक्ते बौद्धानाम् आक्षेपादिकं यदा भवति तदा तेषां तादृशं चिन्तनं भवति. इदानीं न स्मर्यते, मया पूर्वं पठितं परन्तु इदानीं न स्मर्यते. तत्र दृष्ट्वा
वदामि. पृष्टवती
समीचीनः प्रश्नः, तत् दृष्ट्वा वदामि भगिनि. अस्तु भगिनि, तत्र इदानीं रत्नाभगिनी तावत्पर्यन्तं वयं आगतवन्तः. कियत्पर्यन्तम् इत्युक्ते तत्र आत्मनि अतिव्याप्तं भवति इति कृत्वा इदानीम् आत्म अथवा त्वक्सु अतिव्याप्तं भवति इति कृत्वा तस्य परिष्कारार्थं नाम तस्य निवारणार्थम् इदानीं किं क्रियते इति सावित्री भगिनी वदति वा?
आं महोदय, प्रयत्नं करोमि. तत्र अतिव्याप्तेः निवारणार्थं आत्मनः अपि च त्वगिन्द्रियस्य विशेषगुणान् स्वीकृत्य वदामः चेत् तत्र सम्यक् भवति इति चिन्तनम् आसीत्. तथा कुर्मः चेत् इन्द्रियाणि एव अतिव्याप्तिः भवति. किमर्थं चेत् इन्द्रिये अपि विशेषगुणाः भवन्ति एव, अनुद्भूतरूपेण भवन्ति, प्रत्यक्षम् अयोग्यरूपेण भवन्ति, परन्तु भवन्ति. तदर्थम् अत्र अव्याप्तिदोषग्रस्तः भवति लक्षणम्. तस्य निवारणार्थम् उद्भूतविशेषगुणान् अनाश्रयत्वे सति इति वदामः चेत् सम्यक् भवति वा इति पश्यामः चेत् तत्र श्रोत्रेन्द्रिये अव्याप्तिदोषः भवति. किमर्थं चेत् तत्र श्रोत्रेन्द्रियं तु कर्णपुटेन अवच्छिन्नः आकाशप्रदेशः एव इन्द्रियं श्रोत्रेन्द्रियम् इति उक्तम्. अपि च काले अतिव्याप्तिः अपि भवति. किमर्थं चेत् तत्र न श्रोत्रेन्द्रिये अतिव्याप्तिः अव्याप्तिः अव्याप्तिः भवति इति चिन्तयित्वा द्वितीयदलं योजयामः चेत् इत्युक्ते इन्द्रिविशेष
नाम शब्देतर इदानीं
शब्देतर उद्भूतविशेषगुणान् अनाश्रयत्वे सति मनसंयोगाश्रयत्वम् इन्द्रियम् इति वदामः चेत् तत्र काले अतिव्याप्तिः भवति. किमर्थं चेत् मनसंयोगः तु मनः कालस्य संयोगः भवति एव. तथा स्वीकुर्मः चेत् कालः अपि इन्द्रियं भवति. तस्य निवारणार्थं द्वितीयदलस्य इतोपि परिष्कृतं करणीयं भवति. शब्देतर उद्भूतगुणा अनाश्रयत्वे सति ज्ञानकरण मनःसंयोगाश्रयत्वम् इन्द्रियत्वम् इति स्वीकुर्मः चेत् तत्र मनः कालस्य कालस्य अपि च मनः संयोगः तु ज्ञानकरणसमये एव न भवति, सर्वदा भवति. अपि च एवं योजयामः चेत् तस्य ज्ञानस्य
सत्यं सर्वथैव तत्र सर्वदा यदा ज्ञानं न भवति तदापि मनः कालसंयोगो भवति इति कृत्वा कारणत्वं न सिद्ध्यति.
आम् शब्देतर उद्भूत विशेषगुणान् अनाश्रयत्वे सति ज्ञानकरणमन ज्ञानकारणमनसंयोगाश्रयत्वम् इन्द्रियत्वम्
इन्द्रियत्वं
च तत्र तथैव अस्ति अस्माकं.
आं सत्यं सत्यं सम्यक् अस्ति. इदानीं सरला भगिनी, इदानीं चक्षुरिन्द्रियं स्वीकुर्मः. चक्षुरिन्द्रियस्य चक्षुरिन्द्रिये एतत् लक्षणं समन्वितं भवति वा न वा, कथं वा चक्षुरिन्द्रिये तस्य लक्षणस्य समन्वयः इति वदति वा?
चक्षुरिन्द्रिये संयोग भवति संयुक्तसमवेतत्वं परम्परासम्बन्धः आगच्छति. चक्षुरिन्द्र अर्थेन विषयेन सह यथा भवान् आम्रफलस्य रक्त रक्तपुष्पस्य उदाहरणं दत्तवान्, चक्षुरिन्द्रियस्य रक्त पुष्पैः पुष्पेन सह संयोगः भवति. पुष्पे रक्तवर्णसमवायसम्बन्धेन अस्ति, तत् ग्राह्यतं भवति.
प्रक्रिया सम्यक् सम्यक् उक्तं, परन्तु इदानीं किं कुर्मः, इदानीम् अस्माभिः लक्षणं प्राप्तम्. इदानीम् अस्माभिः तत्र लघुलक्षण लक्षणादारभ्य परिष्कारादिकं कृत्वा, नाम तत्र निरन्तरं परिष्कारं कुर्मः चेत् तत्र किं भवति इत्युक्ते निर्दुष्टं लक्षणं प्राप्यते. तत् लक्षणम् अस्माभिः प्राप्तम्. इदानीं लक्षणं यत् प्राप्तं तस्य लक्षणस्य समन्वयः कथं भवति इति तत्र तत्र काचन रीतिः वर्तते, प्रक्रिया नाम तत्र विशेषणदलस्य समन्वयः कथं भवति चक्षुरिन्द्रिये, विशिष्य दलस्य समन्वयः कथं भवति चक्षुरिन्द्रिये, तत् प्रदर्शनीयं भवति. अत्र विशेषणदलं शब्देतरभूतविशेषगुणानाश्रयत्वं, विशिष्यदलं ज्ञानकारणमनःसंयोगाश्रयत्वं, द्वयोः समन्वयः चक्षुरिन्द्रिये भवति वा न वा इति प्रदर्शनीयं भवति. तत्र तत्र अस्तु भवतु पश्यामः. रक्षा भगिनी तत्र किञ्चित् प्रयत्नं करोति वा समन्वयः कथं भवति?
क्षम्यताम्, एकः प्रश्नः अस्ति, इदानीं पृच्छामि वा?
पृच्छतु भगिनि.
तत्र यदा वयं ज्ञानकारणम् इति तत्र दलं न स्थापयामः, मनस्संयोगाश्रयत्वम् इत्यादिकम् एव भवति, तदा काले अतिव्याप्तिः, अपि च कालः अपि तत्र इन्द्रियत्वं काले अपि आपतति इति दुष्टं लक्षणं भवति. तर्हि तादृशमेव तत्र दिशि न भवति वा, यतोहि दिक् अपि तत्र विभुद्रव्यम् अपि च सर्वदा संयोगः अस्ति अन्यविभुद्रव्येण सह इति?
तत्र मनसंयोगः दिशि भवति वा न वा इति प्रश्नः खलु. तत् सामान्यरूपेण चिन्तयामः चेत् भवति इति भाति, कुतः इति चेत् तत्र दिशि अपि सर्वम् अस्ति इति प्रतीतिः भवति इति चिन्तनमस्ति नैयायिकानां. तत् चिन्तनीयं भगिनि, तत्र समीचीनः प्रश्नः. अत्र ग्रन्थादिषु केवलं तत्र कालस्य एव चिन्तनं कृतं, तत्र संयोगोपि दिशि भवेत् तत् सत्यं, परन्तु ज्ञानकारण इति करणेन तदपि व्यावृत्तं भवति, परन्तु तत् युज्यते वा न वा इति चिन्तनं करणीयं. समीचीनः प्रश्नः, एतदपि दृष्ट्वा वदामि.
अस्तु, धन्यवादः.
आं सत्यं, समीचीनः प्रश्नः.
वदामि वा महोदय?
आम् आम् आं भगिनि.
अस्तु, चक्षुरिन्द्रिये अस्य लक्षणवाक्यस्य समन्वयः कथं भवति इति, तर्हि विशेष्यदलं विशेषणदलम् इति द्वयमस्ति. विशेषणदलं स्वीकृत्य ज्ञानकारणमनसंयोगाश्रयत्वम् इति विशेषणदलम्. चक्षुरिन्द्रिये तु यदा ज्ञानं जायते, चाक्षुषं ज्ञानं, तदा मनसंयोगः मनसंयोगाश्रयत्वं चक्षुषि भवति एव. अपि च तदा यथा वयं दृष्टवन्तः ज्ञानकारणमपि अस्ति चक्षुरिन्द्रियं प्रत्यक्षज्ञाने इति कृत्वा ज्ञानकारणमनसंयोगाश्रयत्वम् उभयोः अपि विद्यमानत्वम् अस्ति चक्षुषि इति विशेषणदलस्य सार्थक्यं विशेष्यदले अस्ति विशेषगुणानाश्रयत्वम् इति इन्द्रियेषु गुणाः न सन्ति इति उक्तमासीत् भवता इति चिन्तयामि विशेषगुणा
उद्भूतविशेषगुणाः न सन्ति
उद्भूतविशेषगुणाः न सन्ति इति कृत्वा तत्र चक्षुषि किमपि तादृशगुणः नास्ति अपि च शब्देतर उद्भूतगुणः तु न भवति एव चक्षुषि इति कृत्वा तत्र शब्देतर उद्भूतविशेषगुणानाश्रयत्वमपि अस्ति च
इतोपि तत्र कथं कुर्वन्ति तत्र लक्षणस्य समन्वयः इत्युक्ते तत्र वदन्ति एवमेवं वदन्ति शब्देतर उद्भूतविशेषगुणः उद्भूतरूपम् उद्भूतरूपम् उद्भूतरूप अनाश्रयत्वमेव उद्भूतरूपादयः एवं न केवलं रूपम् उद्भूतरूपादयः उद्भूतरूपादीनाम् आश्रयत्वं चक्षुरिन्द्रिये न वर्तते अनाश्रयत्वमेव वर्तते इति कृत्वा शब्देतर उद्भूत विशेषगुण अनाश्रयत्वं चक्षुरिन्द्रिये अस्ति चक्षुरिन्द्रिये ज्ञानकारणमनसंयोग आश्रयत्वमेव अस्ति इति कृत्वा लक्षणसमन्वयः तथा किञ्चिदिव तत्र काचन रीतिः वर्तते समन्वयस्य उदाहरणादिकं तत्र दातव्यं भवति शब्देतर उद्भूतविशेषगुणाः उद्भूतरूपादयः उद्भूतरूपादीनाम् आश्रयत्वं चक्षुरिन्द्रिये नास्ति इति कृत्वा शब्देतर उद्भूतविशेषगुणानाश्रयत्वमेव चक्षुरिन्द्रिये वर्तते ज्ञानकारणमनसंयोग आश्रयत्वमपि चक्षुरिन्द्रिये वर्तते इति कृत्वा लक्षणसमन्वयः एवमेव वर्तते अस्तु इदानीम्
अपि च शब्दस्य केवलम् उद्भूतत्वमेव अनुद्भूतत्वं नास्ति
शब्दस्यापि अनुद्भूतत्वं स्यात् प्रत्यक्ष अयोग्यं तत्र नैयायिकानां मते भवति वा न वा परन्तु तत्र वेदान्तिनां मते तु तत् भवत्येव शब्दस्यापि नैयायिकानां मते अस्ति वा न वा इति चिन्तनस्य विषयः भगिनि वेदान्तिनां मते किम् अस्ति आम्
वदतु महोदय क्षम्यतां
तत्र वेदान्तिनां मते किम् अस्ति इत्युक्ते तत्र किमस्ति परा पश्यन्ति मध्यमा वैखरी इति चिन्तनं वर्तते खलु तत्र वैखरी यः शब्दः वैखरी ध्वनिः तदेव इदानीं तत्र उद्भूतशब्दः इति चिन्तनं कर्तुं शक्यते इति मन्ये परन्तु नैयायिकानां तादृशं चिन्तनम् अस्ति वा न वा इति न जाने
अस्तु आकाशे शब्दः उद्भूतरूपेण वर्तते इति नैयायिकाः चिन्तयन्ति
इति चिन्तयन्ति सत्यमेव सत्यमेव प्रत्यक्षयोग्यमेव वर्तते आकाशे इति तेषां चिन्तनम् अस्ति सत्यम् अस्तु तर्हि इदानीं निरन्तरं वयम् एकवारं शीघ्रं तत्र ग्राणेन्द्रिये एतस्य लक्षणस्य समन्वयः कथं भवति इति किञ्चिदिव शीघ्रं वदति वा तदनन्तरम् अग्रे सरामः
ग्राणेन्द्रिये महोदय
आम्
तत्र यत् लक्षणं यत् लक्षणवाक्यं वयं कृतं तत् ग्राणेन्द्रिये व्याप्तिः अस्ति इति वा
नाम तत्र विशेषणदलस्य समन्वयः कथं भवति विशेष्यदलस्य समन्वयः कथं भवति ग्राणेन्द्रिये इति
अस्तु ग्राणेन्द्रिये ज्ञानकारणं मनसंयोग आश्रयत्वम् अस्ति
अस्ति
अस्ति अपि उद्भूतविशेषगुणाः घ्राणेन्द्रिये नास्ति नास्ति अतः शब्देतर उद्भूतविशेषगुणानाम् आश्रयम् अपि
घ्राणेन्द्रिये
नास्ति एव
सत्यं सत्यं तत्र उदाहरणमपि दातव्यं भवति तत्र लक्षणसमन्वयसमये शब्देतर उद्भूतविशेषगुणाः रूपादयः इति उदाहरणं रूपादयः उद्भूतरूपादयः तादृश उद्भूतरूपादयः ग्राणेन्द्रियेण सन्ति इति कृत्वा शब्देतर उद्भूतविशेषगुणानाश्रयत्वं ग्राणेन्द्रिये अपि च ज्ञानकारणमनसंयोग आश्रयत्वं ग्राणेन्द्रिये वर्तते इति कृत्वा लक्षणसमन्वयः एवम् एतादृशी शैली वारं वारं तत्र दृश्यते ग्रन्थेषु अस्तु तर्हि इदानीं पुनः अस्माभिः किं न उक्तं तत्र विशेषपदस्य प्रयोजनं किम् इति न उक्तम् इति मन्ये अस्माभिः केवलं तत्र शब्देतर उद्भूतविशेषगुण अनाश्रयत्वे सति इति लक्षणमस्ति इदानीं विशेष इति यत् पदं तत् पदं न स्वीकुर्मः केवलं शब्देतरोद्भुतगुण अनाश्रयत्वे सति लक्षणे निर्दिष्टं लक्षणम् अस्ति शब्देतरोद्भुतविशेषगुण अनाश्रयत्वे सति इदानीं विशेषपदं त्यजामः शब्देतरोद्भुतगुण अनाश्रयत्वे सति इति वदामः चेत् को दोषः इत्युक्ते इदानीं पश्यामः शब्देतरोद्भुतगुणः संयोगादि शब्देतरोद्भुतविशेष शब्देतरोद्भुतगुणः इदानीं विशेषगुणः न उक्तः शब्देतरोद्भुतविशेष शब्देतरोद्भुतगुणः संयोगादि तदाश्रयत्वस्यैव सर्वेषु इन्द्रियेषु विद्यमानत्वात् असम्भवदोषग्रस्तम् इदं लक्षणं भवति नाम शब्देतर उद्भुतगुणः संयोगः संयोगः विशेषः यदा वदामः तदा संयोगस्य व्यावृत्तिः भवति कुतः इति चेत् रूपं गन्धो रसस्पर्श स्नेहसांसिद्धिको द्रव बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिकः अत्र संयोगः न अन्तर्भवति तर्हि विशेष यदि पदं न निवेशयामश्चेत् तत्र संयोगोऽपि शब्द इतर उद्भूतविशेष उद्भूतगुणः अस्ति इति कृत्वा संयोगस्य आश्रयत्वं सर्वेषु इन्द्रियेषु वर्तते अनाश्रयत्वं न वर्तते इति कृत्वा इदानीम् असम्भवदोषदुष्टं भवति इदं लक्षणम् अतः तन्निवारणार्थं तत्र विशेषदलस्यापि आवश्यकता अस्ति तद् स्पष्टमस्ति वा सुगमं महोदय एकवारं वदति विशेषपदं किमर्थम् आवश्यकम्
हा तत्र शब्देतर उद्भूतविशेषगुण अनाश्रयत्वम् इति विशेष्यमस्ति तत्र विशेष इति पदं त्यजामश्चेत् प्रथमं तु शब्देतर उद्भूतविशेषगुणस्य उदाहरणं भवति रूपादयः इति तत्र विशेषम् इति दलं त्यजामश्चेत् तत्र संयोगः अपि अन्तर्भूतं भवति किमर्थमित्युक्ते संयोगः तु विशेषगुणः नास्ति इति कृत्वा यदि संयोगः अपि संयोगस्य अनाश्रयत्वं लक्षणे प्रवेशितं चेत् तत्र असम्भवदोषः एव भवति किमर्थमित्युक्ते तत्र सर्वत्र सर्वदा इन्द्रियस्य संयोगत्वम् आवश्यकं भवत्येव मनसा अपि च अर्थेन इति कृत्वा तत्र असम्भवदोषः भवति इति कृत्वा विशेष इति दलस्य आवश्यकता अस्ति
अस्तु बहु समीचीनमस्ति अस्तु इदानीं शब्देतरोद्भुतविशेषगुणानाश्रयति ज्ञानकारणमनसंयोगाश्रयति एतत् एतद् निष्कृष्टं यत् लक्षणं वर्तते तस्य लक्षणस्य सम्यक् ज्ञानं जातम् इति मन्ये स्वयमेव वयम् एतत् लक्षणं कर्तुं शक्नुमः इति सामर्थ्यम् इदानीम् अस्माकम् अस्ति इति मन्ये तत्र स्वयमेव यदा कुर्मः तद् पेडागोजि वदन्ति खलु यदा स्वयं यदा कुर्मः तदा एव विषयस्य वैशद्यं सम्पादयामः अन्य कोऽपि करोति लक्षणं चेत् तत्र दलसार्थक्यचिन्तनादिकं कृत्वा किञ्चिदिव स्पष्टतां प्राप्नुमः परन्तु यदा स्वयमेव लक्षणं कुर्मः तदा सर्वमपि विशदं सुस्पष्टं भवति इति कृत्वा तादृशः प्रयत्नः सर्वदैव करणीयः यथा वा वयं स्वयमेव लक्षणकर्तारः भवामः अस्तु इदानीम् अग्रे सरामः वा प्रश्नः अस्ति वा
महोदय अत्र विशेषगुणः इत्युक्ते वैशेषिकैः प्रतिपादितः इति किमपि वा
तादृशवैशेषिकैः प्रतिपादितः नास्ति तत्र तत्र गुणग्रन्थे किञ्चित् एतेषां तत्र विशेषगुणानां किञ्चिदिव विवरणं वयं कुर्मः वैशेषिकैः प्रतिपादितम् इति कृत्वा विशेषगुणः इति न उक्तः एतेषां गुणानाम् अस्ति कश्चन विशेषः एते गुणाः किं कुर्वन्ति इत्युक्ते स्वाश्रयम् अन्येभ्यः व्यावर्तयन्ति इति कृत्वा विशेषगुणः इति उच्यते कथं व्यावर्तयन्ति इति गुणग्रन्थे पश्यामः प्रत्येकं स्वीकृत्य रूपं स्वीकृत्य गन्धं स्वीकृत्य कुतः इति चेत् तत्र रूपं जले अपि वर्तते रूपं प्रतिज्ञामपि वर्तते रूपं तेजसे अपि वर्तते तर्हि स्वाश्रयं कथं व्यावर्तयति इत्यादिकान् प्रश्नान् तत्रैव वयं पश्यामः. तत्र प्रश्नः भवेयुः, परन्तु तत्र सर्वमपि तेषां सर्वेषां प्रश्नानां समाधानं वर्तते. सामान्यतः किं वदामः चेत् एते गुणाः किं कुर्वन्ति इत्युक्ते स्वाश्रयान् अन्येभ्यः व्यावर्तयन्ति, स्वाश्रयं लक्षयन्ति इति कृत्वा विशेषगुणाः इत्युच्यते. तत्र तदेव विशेषः. विशेषः किं करोति इत्युक्ते व्यावर्तयति इति कृत्वा विशेषः इति उक्तः. परन्तु विशेषनामकः पदार्थस्य विषयः न, तत्र व्यावर्तयति इति कृत्वा तत्र विशेषकः अस्ति इति कृत्वा वैशेषिकागुणाः विशेषगुणाः इति उच्यन्ते.
अस्तु महोदय, यतोहि अत्र अग्रे एव किञ्चित् वैशेषिकगुणाः इति उक्तं, तदर्थं पृष्टम्.
आमां, सत्यमेव सत्यमेव, नाम तत्र विशेषगुणाः एव वैशेषिकगुणाः इति.
अस्तु,
नाम वैशेषिकैः कृतम् इति कृत्वा विशेषगुणः इति तु नास्ति इति यावत् अहं जानामि. अस्तु अस्तु, तर्हि अग्रे सरामः. अस्माकं शरीरेन्द्रियभिन्नो विषयः तदस्माभिः दृष्टमेव तत्र मूलग्रन्थस्य अध्ययने एव. शरीरभिन्नत्वे सति इन्द्रियभिन्नत्वे सति पार्थिवं तत्र पृथिवीद्रव्यं तत्र विषयरूपेण तस्य अवगमनम्. एवं तत्र पुनः शरीरवत् तत्र गन्धवत् शरीरं, गन्धवत् शरीरम् अत्र सन्धि कोऽपि स्मरति वा अत्र सूत्रं किमासीत् तत्र? अत्र गन्धवत् शरीरम् इति द्वयोः अत्र सन्धिः वर्तते. सत्यमेव, सकारस्य सकारत्वेन परिवर्तनं भवति, सत्यमेव. एवं च गन्धवत् शरीरं पार्थिवशरीरं, पार्थिवशरीरं गन्धवत् भवति. कुतः इति चेत् तत्र पृथिवीद्रव्यस्य तदेव लक्षणं गन्धवत्वं. तर्हि यत् पार्थिवं शरीरं तद् गन्धवत् शरीरं भवति, तदेव आशयः. इन्द्रियं ग्राणेन्द्रियं यद् इन्द्रियं भवति तदपि गन्धवत् इन्द्रियम् अस्ति, ग्राणेन्द्रियं पार्थिवेन्द्रियम् अस्ति. कथं पार्थिवेन्द्रियमस्ति कदाचित् प्रश्नः भवति. वयं सर्वदैव वदामः ग्राणेन्द्रियं पार्थिवेन्द्रियं कथं वा ज्ञायेत, कथं जानीमः? चक्षुरिन्द्रियं तैजसम् इन्द्रियं कथं जानीमः? तत्र सर्वत्रापि तर्कः विद्यते. यदा उद्ग्रन्थान् तत्र मुक्तावली आदिग्रन्थान् पठामः तदा तत्र 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 किमर्थं तथा उच्यते इति सर्वं निरूपितं वर्तते. परन्तु अत्र अत्रत्यः विषयः नास्ति इति कृत्वा अग्रेसरामः. गन्धवत् इन्द्रियं पार्थिवेन्द्रियं गन्धवान् विषयः पार्थिवविषयः भवतु नाम इति तत्तत् लक्षणं बोध्यं, नाम तत्र पार्थिवविषयः कः इत्यादिकं बोध्यं, तत्र किमपि विशेषः कोऽपि नास्ति. नाम अत्र किं वदति इत्युक्ते पार्थिवविषयस्य लक्षणं किम् इत्युक्ते गन्धवान् विषयः इति तदेव लक्षणं. पार्थिवशरीरस्य किं लक्षणं इत्युक्ते गन्धवत् शरीरं पार्थिवशरीरं तदेव लक्षणम् इति तत्तत् लक्षणं बोध्यम् इति वदति. यदि पार्थिवं शरीरं दर्शयति शरीरम् इति तत्र मूलग्रन्थे तत्र प्रतीकधारणम् इति उच्यते. मूलग्रन्थे शरीरम् इति मूलग्रन्थभागः, पुनः एकवारं वदामि, तत्र प्रतीकधारणं मूलग्रन्थे विद्यमानभागः तं भागं स्वीकृत्य तत्र व्याख्यानग्रन्थेषु निवेशितं सर्वत्र तत्र तत्र दृश्यते, तदेव प्रतीकधारणम् उच्यते. प्रतीकधारणम् इति नैयायिकाः पुनः किं कुर्वन्ति इत्युक्ते शब्दानां प्रयोगः यत्किमपि भवति, किमर्थं शब्दप्रयोगः, तस्य शब्दस्य को वा अर्थः, प्रतीकधारणं नाम किम् इति प्रश्नः भवति. पुनः प्रतीकधारणं नाम किम् इत्युक्ते पुनः नैयायिकानां निरूपणं व्यासिख्यासितस्य ग्रन्थैकदेशस्य उल्लेखः इत्येव प्रतीकधारणम् इत्युक्ते व्याशिख्यासितस्य नाम व्याख्यानं कर्तुम् इष्टस्य ग्रन्थस्य एकभागः एव, तत् एकभागस्य उल्लेखः एव प्रतीकधारणम् इति उच्यते. पार्थिवेन्द्रियं दर्शयति इन्द्रियम् इति भवतु नाम तदपि सम्यक् एव, अत्र न किमपि अस्ति. इन्द्रियम् इति मूलग्रन्थे इन्द्रियम् इति कृत्वा पार्थिवेन्द्रियं दर्शयति इति व्याख्याकारः वदति. ग्रन्थग्राहकम् इति प्रयोजनकथनं, नाम गन्धग्राहकम् इति लक्षणं नास्ति. लक्षणं किम् इदानीमेव उक्तं, तत्तत् लक्षणं बोध्यम् इति उक्तं. किम् उक्तम् इत्युक्ते गन्धवत् इन्द्रियम् इति लक्षणमस्ति. कस्य? ग्राणेन्द्रियस्य. ग्राणेन्द्रियस्य लक्षणं किम् इत्युक्ते गन्धवत् इन्द्रियम् इत्येव लक्षणं। ग्राणेन्द्रियं केवलं संज्ञा, गन्धग्राहकत्वं न लक्षणं, केवलं प्रयोजनकथनम् इति वदति। गन्धग्राहकत्वं प्रयोजनकथमेव वर्तते, लक्षणरूपेण अभिमतं तु केवलं गन्धवत् इन्द्रियमेव लक्षणम्। नासाग्र इत्याश्रयुक्तिः, अत्र मूलग्रन्थे उक्तं नासाग्रवर्ति इति मूलग्रन्थे, मूलतर्कसङ्ग्रहग्रन्थे उक्तं। ते नासाग्रवर्ति किमर्थम् उक्तम् इत्युक्ते, भोः इन्द्रियं कुत्र वर्तते इति जिज्ञासा भवति चेत् आश्रयः, इन्द्रियस्य आश्रयः कः इति आश्रय उक्त्यार्थमेव उक्तं तथा नासाग्रवर्ति इति। नासिकायाः अग्रभागे वर्तते इति कृत्वा नासाग्रवर्ति इति आश्रयकथनं, कुत्र वर्तते इति कथनम्। एवम् उत्तरत्र ज्ञेयं नाम उत्तरत्रापि तथैव चिन्तनं करणीयं। यदा तत्र जलस्य अध्ययनं क्रियते तदा तत्र जलीयम् इन्द्रियं वर्तते, तत्रापि संज्ञा भवति, तत्रापि आश्रय उक्तिः भवति, तत्रापि प्रयोजनकथनं भवति, भवति चेत् एवमेव चिन्तनं करणीयं। तत्र लक्षणं नास्ति, प्रयोजनकथनम् अस्ति, संज्ञा अस्ति, आश्रय उक्तिः अस्ति, एवमेवम् उत्तरत्रापि चिन्तनं करोति इति भवति। उत्तरत्रापि येयम्। इदानीं पार्थिवविषयं दर्शयति, विषय पार्थिवं विषयं किम् इत्युक्ते मृत्पाषाणादि इति मूलग्रन्थे वर्तते, तदेव तत्र किमपि नास्ति। अस्तु, किञ्चिदिव अग्रे सरामः। अग्रे किमस्ति इत्युक्ते, इदानीं क्रमप्राप्तं किमासीत् पृथिवी, इदानीं पृथिव्याः लक्षणं कृतम्। इदानीं क्रमप्राप्तं पुनः किमस्ति इत्युक्ते आपः, नाम तत्र जलस्य जलग्रन्थः, इदानीं जललक्षणग्रन्थः। अस्तु, इदानीं गोपालमहोदय पठति वा तत्र मूलग्रन्थं शीतस्पर्शवत्य आपः इति आरभ्य।
आं महोदय, शीतस्पर्शवत्य आपः, सा द्विधाः नित्याः अनित्याश्च, नित्याः परमाणुरूपाः, अनित्याः कार्यरूपाः, पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्, शरीरं वरुणलोके, इन्द्रियं रसग्राहकं, रसनं जिह्वाग्रवति, विषयः सरित्समुद्रादिः इति। इदानीं पूर्वं पार्थिवेन्द्रस्य घ्राणेन्द्रियं दृष्टम्, इदानीं पृथिव्याः आपः तस्य लक्षणं भवति शीतस्पर्शवत्य आपः इति लक्षणम्। तत्रापि द्विधाः नित्याः अनित्याः च, जानीमः नित्याः इत्युक्ते परमाणुरूपाः, अनित्याः सर्वदा कार्यरूपाः एव। अनन्तरम् अनित्याः तत्रापि अनित्याः त्रिविधाः भवन्ति शरीर इन्द्रियविषयभेदात्, त्रिविधाः भवति शरीरभेदात्, इन्द्रियभेदात्, विषयभेदात्। शरीरं आपः शरीरमस्ति वरुणलोके, इन्द्रियमस्ति रसग्राहकं, जिह्वाग्र तत्र इन्द्रियमस्ति जिह्वाग्र जिह्वाग्रे, तस्मात् स्पर्शवत् जिह्वाग्रवति इति वक्तुं शक्यते। विषयः अस्ति शरीर सरित् समुद्रादिः,
समुद्रादिः सत्यं, सत्यमेव सत्यम्। अस्तु, तर्हि अत्र शरीरं वरुणलोके इति उक्तं, कथं जानीमः इत्युक्ते साक्षात् अस्माभिः न दृष्टम्, आगमप्रमाणद्वारा अस्माकम् आगमग्रन्थाः ये सन्ति तेषु ग्रन्थेषु जलीयं शरीरं वरुणलोके वर्तते इति उक्तम् अस्ति इति कृत्वा, वयं शब्दप्रमाणमपि स्वीकुर्मः इति कृत्वा शरीरं वरुणलोके जलीयं शरीरं वर्तते इति ज्ञायते। पूर्वमुक्तमासीत् किम् उक्तमासीत्? एवम् उत्तरत्र गेयम् इति उक्तमासीत्। नाम किम् उत्तरत्र गेयम् इत्युक्ते, इन्द्रियं रसग्राहकं यदुक्तं तत् न लक्षणं, तन्न लक्षणं, तत् केवलं प्रयोजनकथनम्। रसनं जिह्वाग्रवर्ति इति अत्रापि केवलं तत्र आश्रय उक्तिः। कुत्र वर्तते रसनीयम् इत्युक्ते, जिह्वायाः अग्रभागे वर्तते इति कृत्वा, जिह्वायाः अग्रभागे, सर्वत्र जिह्वायां वर्तते इति नैयायिकानां चिन्तनं नास्ति, अग्रभागे वर्तते इति वदन्ति। नाम अग्रभाग नाम उपरि भागे इति चिन्तनं करणीयम् इति मन्ये। जिह्वाग्रवर्ति तदपि किमस्ति? आश्रय उक्तिः। लक्षणं तु किं भवति इत्युक्ते, तत्र जलीयम् इन्द्रियं रसनेन्द्रियं यथा पूर्वं लक्षणं कृतमासीत्, तथैव तत्र तत् जलीयम् इन्द्रियम् अत्र किमुक्तं, तत् शीतस्पर्श गन्धवत्तम् उक्तमासीत्, अत्र शीतस्पर्शवान् विषयः जलीयः विषयः एवम् एवं चिन्तनं करणीयम्। एवम् उत्तरत्रापि ज्ञेयं यदा उक्तं पूर्वं, तथा चिन्तनं करणीयम् इत्येव अत्र विषयः, अन्यत् किमपि नास्ति। अस्तु, अत्र तत्र अप् इति पदमस्ति, प्रातिपदिकम् अप् इति मन्ये, तत्र नित्यबहुवचनान्तप्रयोगः भवति, अतः आपः इति, भक्त्यः आपः इति। अस्तु, इदानीं दीपिकाग्रन्थं पठामः। तत्र आन्वे महोदय किञ्चिदिव पठति वा? अत्र दीपिकाग्रन्थे
यत्किमपि आपां लक्षणम् अह शीते इति उत्पन्नविनष्टे जले अतिव्याप्तिवरणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्वे तत्पर्यम् शीतं शिलातलम् इत्यादौ जालसम्बन्धात् एव शीतस्पर्शभानम् इति नातिव्याप्तिः। भोः तत्र अन्यत् किमपि आगच्छति? प्रथमं वाक्यमेव स्वीकृत्य वदामि किञ्चित्। तत्र उत्पन्नविनष्टे जले अतिव्याप्तिवरणा इति दृष्टम् अस्माभिः। इदानीम् आपं लक्षणं शीतस्पर्शवत्याः आपः इति लक्षणं स्वीकुर्मः इति चेत्, तर्हि उत्पन्ने विनष्टे जले तत्र अव्याप्तिः स्यात्, यतोहि एतत् इमे आपः स्वतः तत्र उत्पन्ने द्रव्ये उत्पन्नं द्रव्यम् एकं निमेषं एकं क्षणं निर्गुणं च तिष्ठति, अतः एव शीतस्पर्शत्वं नास्ति तेषाम्। इदानीं तद्वरणाय कृतः एषः उपायः प्राक् एव। इदानीं शीतस्पार्श यत्समानाधिकरणं यत्समानाधिकरणाजाति वर्तते सा तादृशी एव सा जलत्वम् अथवा अप्त्वं स्यात्, परन्तु तत्र समानाधिकरणजातिः तत्रापि द्रव्यत्वं स्यात्, सत्तापि स्यात्। एतत् सर्वं वर्णाय द्रव्यत्व अपरजातिः इति एषः एतत् दलम् अपि अनीतं। तत्रापि भवद्भिः उक्तं प्राक् द्रव्यत्वा साक्षात् अपरजातिः इति वक्तव्यं, यतोहि अन्यथा तत्र सरित्वं वा नादित्वं, तत्र नादित्वं तु न जाति, नादित्वं जाति अपि वा नादित्वं तत्रापि तर्हि अस्यां जातौ तत्र अतिव्याप्तिः स्यात्, तद्वरणाय साक्षात् इति पदमपि अन्विष्यति।
सत्यमस्ति, धन्यवादः महोदय। अस्तु, तर्हि पुनः किञ्चिदेव पश्यामः। सत्यं सम्यक् उक्तम्। अत्र पूर्वमुक्तमासीत् गन्धवती पृथिवी उक्तमासीत्, तत्र दोषः उत्थापितः। उत्पन्नविनष्टे द्रव्ये अथवा सुरभि असुरभि आरब्धे द्रव्ये इति तत्र दोषः उत्थापितः आसीत्। तथैव अत्रापि शीतस्पर्शवत्यः आपः इति उक्तं, परन्तु उत्पन्नविनष्टे जले, जन्यजले, उत्पन्नविनष्टे जले यतोहि उत्पन्नं द्रव्यं क्षणं निर्गुणं निष्क्रियं च तिष्ठति इति न्यायात् तत्र प्रथमे क्षणे उत्पन्ने क्षणे शीतस्पर्शः नास्ति इति कृत्वा तत्र अव्याप्तिः भवति। तर्हि उत्पन्नदिनस्य जले अव्याप्तिवारणाय शीतस्पर्शवत्यः इत्यस्य को वा तात्पर्यम् किं वा तात्पर्यम् इत्युक्ते शीतस्पर्शसमानाधिकरण सामानाधिकरण्यम् इदानीं निवेशितं शीतस्पर्शसमानाधिकरणद्रव्यत्व अपरस्य स्थाने द्रव्यत्वसाक्षात् व्याप्यदातिमत्वम् इति निवेशनीयं भवति। तदेव तात्पर्यम् इति चिन्तयामः। शीतस्पर्शसमानाधिकरणद्रव्यत्व अपरजातिमत्वे तात्पर्यं। तर्हि शीतस्पर्शसमानाधिकरणद्रव्यत्व अपरजातिः जलत्वजातिः जलत्वजातेः उत्पन्नदिनस्ते जले अपि सत्त्वात् न अव्याप्तिः अव्याप्तिदुष्टं न भवति इदं लक्षणम्। लक्षणस्य तात्पर्यं कीदृशं वर्तते इत्युक्ते शीतस्पर्शसमानाधिकरणद्रव्यत्व अपरजातिमत्वं लक्षणं शीतस्पर्शसमानाधिकरणद्रव्यत्व अपरजातिमत्वम् अथवा द्रव्यत्वसाक्षाद्व्याप्यजातिमत्वम् इत्युक्ते जलत्वजातिमत्वं जलत्वजाति उत्पन्नविनस्य जले अपि अस्ति इति कृत्वा अतिव्याप्तिदुष्टं न भवति इदं लक्षणम्। अस्तु, सम्यक् अस्ति। इदानीं तत्र पुनः सरला भगिनी किञ्चित् प्रयत्नं करोति वा, अत्र उत्पन्नविनष्टे जले कथं वा अव्याप्तिः न भवति, तत्र शीतस्पर्शसमानाधिकरणम् इति कथं लक्षणस्य समन्वयः इति प्रयत्नं करोति वा?
अस्तु, उत्पन्न जले यदि प्रथमक्षणे उत्पन्नं भवति उत्पन्नं भवति तद् निर्गुणं तिष्ठति, तदनन्तरं यदि कार्यस्य नष्टं भवति तदपि गुणस्य शीतस्पर्शस्य गुणजातः इदानीम् उत्पन्नविनिष्ठे जले अव्याप्तिदोषः आगच्छति। तत् वारणाय दत्तमस्ति समानाधिकरणद्रव्यतापरजातिमत्वे द्रवत्यं जाति अस्ति जले, जलं द्रव्यम् अस्ति, किन्तु जले अपि अपरजाति जलत्वम् अस्ति, तत् द्वयोः समानाधिकरणम् अस्ति। तत् समानाधिकरणं जले शीतस्पर्शलक्षणं तु अस्ति, अतः उत्पन्नवनिष्ठजले अव्याप्तिवारणाय समानाधिकरणद्रव्यस्य परं जातिमत्वं दत्तमस्ति।
सम्यक् एव, सम्यक् सम्यक् वर्णम् अस्तु। इदानीम् अग्रेसरामः, शीतं शिलाकलम् इति अस्माकं प्रतीतिः भवति, शीतं शिलाकलम्।
महोदय, एकः प्रश्नः अस्ति, अत्र आपः इति यथा भवता उक्तं, महोदयेन अपि उक्तं, नित्य स्त्रीलिङ्गशब्दः अस्ति, अपि च नित्य बहुवचनरूपम् एव भवति इति, किन्तु अत्र अपाम् इति अस्ति खलु
षष्ठ्यन्तं रूपम्।
ओहो, अस्तु महोदय, धन्यवादः।
तर्हि शीतं शिलाकलम् इत्यादौ जलसम्बन्धादेव शीतस्पर्शधानमिति नातिव्याप्ति। इदानीं पुनः पूर्वपक्षी वदति, भोः तथा वदति चेदपि शिलातलं शिलातलस्य यदि स्पर्शं कुर्मः चेत् तत्र शैत्यम् अनुभूयते खलु, शिलातले अपि शैत्यम् अनुभूयते, अतः तत्र शिलायाम् अतिव्याप्ति कुतः चेत् तत्र शीतस्पर्शः वर्तते। भवतः लक्षणम् आसीत् शीतस्पर्शवस्तु, नाम शीतस्पर्शसमानाधिकरणद्रव्यत्वपरजातिमत्वम् इति उक्तम् आसीत्। इदानीं शीतस्पर्शः शिलातले अस्ति, शिलायां शिलायां पृथिवीत्वजातिः, तर्हि किं पृथिवीत्वजातिमत्वं लक्षणं भवति वा इति तत्र दोषस्य उत्थापनं कृतम्। किं वदति इत्युक्ते ग्रन्थकारः सिद्धान्ती इदानीं किं वदति इत्युक्ते, भोः तादृशं चिन्तनं मास्तु, किमर्थम् इति चेत् तत्र शिलायाः स्वयं शीतस्पर्शं नास्ति, शीतस्पर्शः नास्ति, तत्र जलमस्ति, जलमस्ति, जलसंयोगः अस्ति इति कृत्वा जलस्य एव शीतस्पर्शस्य बाणं, बाणं नाम ज्ञानम्, अतः तत्र अतिव्याप्ति भवति इति वदति। अस्तु, अत्र विजया भगिनी तत्र वक्तुं शक्यते वा, अत्र शीतं शिलातलम् इति वाक्यं, तत्र दोष उद्भावनं कथं कृतं, तस्य समाधानं कथं कृतम् इति वक्तुं शक्यते वा, प्रयत्नं करोति वा? हा भगिनी अस्ति वा? नास्ति इति मन्ये. अस्तु, भवतु नाम. तर्हि रत्ना भगिनी भवती वदति वा?
अस्तु महोदय. शीतं शिलातलम् इत्यादौ जलसम्बन्ध. अस्तु, यदि प्रश्नः उद्भवति, अस्तु, यदि यदि एकः शिलाखण्डः वा किमपि भूतले वर्तते तदा तत् शीतं भवति, अतः शीतलं पृथिव्याः लक्षणं भवति, अतः अतिव्याप्तिदोषः भवति इति उक्तं. तत्र समाधानम् अस्ति न तथा नास्ति, तत् शिलाखण्डं वा किमपि स्वीकुर्मः तत्र जलसम्बन्धेन शीतस्पर्शः भवति न तु अन्यकारणेन इति, अतः अतिव्याप्तिः नास्ति.
सत्यमेव, सत्यमस्तु. अन्यत् सर्वं पूर्वरीत्या व्याख्येयम्. अन्यत् सर्वं नाम तत्र शरीरादिकम्, इन्द्रियादिकम्, आश्रयुक्तिः, एतत् अन्यत् सर्वं यथा पूर्वं पृथिव्याः सन्दर्भे व्याख्यातं तत्सर्वं तथैव व्याख्येयम् इति वदतु. भवतु नाम अग्रेसराम. इदानीं तत्र तेजग्रन्थः, अत्र सावित्री भगिनी पठति वा, तर्कसङ्ग्रहः मूलं पठति वा?
आं महोदय. उष्णस्पर्शतेजः तच्च द्विविधं, नित्यम् अनित्यं च. नित्यं परमाणुरूपम्, अनित्यं कार्यरूपं, पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्. शरीरमादित्यलोके प्रसिद्धम् इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति. विषयचतुर्विधः भौमादिव्यौदर्याकरजभेदात्. भौमं वह्न्यादिकम्, अभिन्धनं दिव्यं विद्युदादि. भुक्तस्य परिणामहेतुरौदर्यम्, आकरजं सुवर्णादि. बहु किमपि अस्ति, परन्तु उष्णस्पर्शवत् तेजः, तेजः लक्षणम् अस्ति. उष्णस्पर्शः
तेजसः
लक्षणम्. तच्च द्विविधं, नित्यम् अनित्यं च. यथा पूर्वम् अस्माभिः दृष्टं, नित्यं तु परमाणुरूपः, अनित्यं कार्यरूपं, यत् नश्यति तत् अनित्यम् इति. यत् कार्येण आगतं तत् तस्य ध्वंसः अपि जायते, तत् अनित्यम् इति. पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्. पुनः त्रैविध्यं वर्तते. शरीरं तु आदित्यलोके, यथा पूर्वं वरुणलोके इति सर्वं दृष्टवन्तः, अत्र आदित्यलोके. इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति. इत्युक्ते चक्षुः तेजसीय इन्द्रियं, तत्र कृष्णताराग्रवर्ति इति प्यूपल् इति खलु महोदय?
तत्रापि प्यूपल् इति कृष्णतारा, कृष्णतारायाः अपि अग्रभागे वर्तते इति.
अग्रभागे, अस्तु, अग्रभागे अस्ति चक्षुरिन्द्रियम् इति. विषयश्चतुर्विधः भौम दिव्यौदर्याकर आकरज भेदात्. भौमः वह्नि आदिकं, यथा वयं जानीमः वह्नि इति एकविधः अविन्धनं दिव्यं विद्युदादि अत्र अप् इन्धनम् इति तडितः इति वा
सत्यं सत्यं तदेव अस्ति
चतुर्विधः तत्र अस्ति खलु चतुर्विधः तत्र किम्
आम् तत्र अस्ति आम् सत्यं भौमं दिव्यं औदर्यम् आकरजम्
आकरजम् इत्युक्ते पृथिव्याम् अन्तः वर्तते खलु
सत्यं सत्यं खनि इति नाम तत्र मैन्स्
आकरजं सुवर्णादि इत्युक्ते यत्र लोहः सुवर्णं यत्किमपि सुवर्णमेव खलु सुवर्णमेव
सुवर्णं रजतादिकमपि तथैव चिन्त्यते अस्तु सम्यक् अस्ति इदानीम् अत्र
किन्तु भौमम् अपि च आकरजं तयोः भेदः कः भौमम् इत्युक्ते भूमिसम्बद्धम् इति वा
भूम्यं तथैव भूमिसम्बद्धं तत्र विशेषरूपेण यदि गभीरं चिन्तनं क्रियते चेत् वाति तस्मिन् वा तादृशः विभागः किमर्थं कृतः परन्तु तत्र भूमौ भव उपरि भवं यत् अस्ति तत् भौमम् उच्यते नैयायिकैः इति भाति
आकरजम् इत्युक्ते भूमेः अन्तः
अन्तर्भागः
महोदय भुक्तस्य परिमाणहेतु रौदौर्यं तस्यार्थं किम् अस्ति
तत्र पश्यामः विषयश्चतुर्विधः इति उक्तं खलु अस्तु तत् पश्यामः तत्र त्रैविध्यं प्रथमम् उक्तं पुनः त्रिविधं शरीरेन्द्रियविषयः नाम तत्र शारीरं तेजः ऐन्द्रियं तेजः वैषयिकं तेजः इति विभागे यथा पूर्वम् अस्माभिः दृष्टं तद् नाम तैजसेन्द्रियं तैजसविषयः इत्यादिकम् इदानीं किं वदति इत्युक्ते विषयश्चतुर्विधः भौमं नाम भूमौ भवं भौमं द्यौः इति आकाशः तर्हि दिवि द्यौः इति पदस्य सप्तम्यन्तरूपं भवति दिवि भवं दिव्यम् उदरे भवम् औदर्यम् उदरे यत्र अस्माकं यत् भुक्तं भुक्तस्य परिणामहेतुः इति अन्यत् अन्यत्र तत्र दीपिकाग्रन्थे अस्ति वा इति पश्यामि अनन्तरम् अस्ति वा इति पश्यामः भुक्तस्य परिणामहेतुः यदि जठराग्निः इति उच्यते खलु जठराग्नि
अस्तु
तदेव औदर्यम् इति उच्यते आकरजं नाम तत्र सुवर्णादिकम् अत्र यदि न्यायबुद्धिपदकृत्य दृश्यते चेत् तत्र भुक्तस्य अन्नादेः पीतस्य जलस्य परिणामो जीर्णता तस्य हेतु औदार्यम् इत्यर्थः इति पदकृत्ये यदि दृश्यते पश्यन्ति चेत् तत्र दृश्यते अस्तु सुवर्णेति आदिना रजतादिपरिग्रहः इति उक्तं रजतादयः अपि तत्रैव अन्तर्भवन्ति आकरजे एव अन्तर्भवन्ति अर्थः दिवि भवं दिव्यं नाम तत्र सौदानिनी विद्युत् तडित् इति उच्यते खलु तडित् किमस्ति तत् अमरकोशि तडित् सौदानिनी विद्युत् चञ्चला सफलारति इति अमरकोशि तत् सर्वमपि तत्र अन्तर्भवति तत्र सूर्यस्य तेजः अपि तत्रैव दिवि दिव्यं यत् अस्ति तत्रैव अन्तर्भवति एवं भौमं तत्र भूमौ भवं बन्ह्यादिकम् अस्माभिः दृष्टम् अविन्दनं दिव्यं विद्युरादि अविन्दनं नाम तत्र तडितेव सौदामिनी विद्युत् यत्किमपि अविन्दनं तत्र अस्तु
महोदय आकरः इत्युक्ते अर्थः कः भूमिः
आकरः नाम खनि नाम मैन्स्
ओ अस्तु
आकर अस्तु इदानीं किं कुर्मः इत्युक्ते इदानीम् अधिकसमयः नास्ति गभीरः विषयः अस्ति इदानीम् अस्माभिः पूर्वमपि तत्र परिशीलितम् एतत् नाम सुवर्णस्य तैजसत्वसाधनम् अत्र कृतं सुवर्णं तैजसम् इति साधनार्थं युक्तिः प्रदर्शिता. इदानीं तत्र परिशीलनार्थं तत्र पर्याप्तं तत्र पर्याप्तः समयः नास्ति. किं करोमि इत्युक्ते अहम् एकवारं पठामि, किञ्चित् विवरणं करोमि, पुनः तत्र अग्रे पुनः तत्र सम्यक् खण्डतः पुनः पश्यामः. तत्र बहु किमपि अस्ति. अस्तु, तर्हि दीपिकाग्रन्थे सप्तविंशतितमे पुटे अन्तिमभागं पश्यामः. दीपिका, तेजसो लक्षणमाह उष्णस्पर्शवत् इति. इदानीं वयं निपुणाः, वयं जानीमः उष्णस्पर्शसमानाधिकरण इत्यादि किमपि किमपि भवति. उष्णं जलम् इति प्रतीते तेजः सम्बन्धान् विधायित्वा नास्ति व्याप्तिः. नाम पुनः अत्रापि नाम किमुक्तम् इत्युक्ते उष्णस्पर्शसमानाधिकरणद्रव्यत्वपरधातिमत्वम् एवं लक्षणं. तथापि पुनः पूर्वपक्षी किं करोति इत्युक्ते दोषस्य उद्भावनं करोति. नाम भोः, यथा पूर्वं शीतं शिलातलं यथा उक्तं कुर्मम्, इदानीम् अत्र उष्णं जलम् इति प्रतीतिः भवति भोः. किमर्थं तत्र अतिव्याप्तिः भवति? उष्णस्पर्शसमानाधिकरणद्रव्यत्वपरधातिमत्वम् अत्र उष्णं जलम् इति यदा प्रतीतिः भवति तदा उष्णे जले किमस्ति इत्युक्ते तत्र उष्णस्पर्शः अस्ति, जलत्वजातिः अस्ति. तत्र किं उष्णस्पर्शसमानाधिकरणजातिः जलत्वजातिः, जलत्वजातिमत्वं तेजसः लक्षणं भवति वा इत्युक्ते न भवत्येव. तत्रापि किमस्ति इत्युक्ते यथा पूर्वं तत्र तत्र किं वदति इत्युक्ते तादृशी प्रतीतिः कदा भवति, तादृशी प्रतीतेः वैशिष्ट्यं किम् इत्युक्ते तेजसम्बन्धानुविधायित्वम् अस्ति. सम्बन्ध तेजसः सम्बन्धस्य अनुविधायित्वं नाम अनुगमनं करोतु, अनुगामी अस्ति. यत्र यत्र तेजसम्बन्धः अस्ति तत्र तत्र एव तादृशी प्रतीतिः भवति. तेजसम्बन्धः अस्ति एव, तत्र तेजः अस्ति एव, ततः एव तादृशी प्रतीतिः जाता. तेजसम्बन्ध अनुविधायी, तेजसम्बन्ध अनुगामी, फालोवर् इति अनुविधायित्वम् अस्ति इति कृत्वा तत्र उष्णे जले इति प्रतीतिः यदा भवति तत्र जले अतिव्याप्तिः न भवति यथा पूर्वं. समाधानमुक्तमासीत् जलस्य विषये उक्तमासीत्. अस्तु, इदानीं विषयं विभजते भौमेति. इदानीं ननु पूर्वपक्षिणः आक्षेपः. इदानीं ननु सुवर्णं पार्थिवं पीतत्वा गुरुत्वा हरिद्रावत् इति. इदानीं किं करोति पूर्वपक्षी इत्युक्ते इदानीम् अनुमानप्रमाणस्य प्रयोगं करोति. पुनः इति चेत् तत्र सुवर्णं तैजसम् अस्ति वा न वा इति विवादग्रस्तम् अस्ति. विवादग्रस्तम् अस्ति चेत् एकः वदति भोः साक्षात् सुवर्णं तैजसम्, अन्यः वदति कथं साक्षात् सुवर्णं तत् वक्तुं न शक्यते, साक्षात् ज्ञानं तथा भवत् न भवत्येव इति कृत्वा इदानीं तत्र अनुमानप्रमाणं प्रदर्शयति. किं वदति पूर्वपक्षी इत्युक्ते भोः सुवर्णं पार्थिवं किमर्थम् इति इत्युक्ते तत्र पीतत्वात् नाम पीतरूपं केवलं पृथिव्यामेव वर्तते. तर्हि पीतरूपम् अस्ति इति कृत्वा सुवर्णं पार्थिवं कुतः इति चेत् तत्र तैजसः द्रव्यस्य रूपं कीदृशं भवति इत्युक्ते भास्वरशुक्लरूपं. यदि वयं सुवर्णं तैजसं वदामः चेत् भास्वरशुक्लरूपं भवेत् खलु, परन्तु पीतत्वं कथम् आगतं? पीतत्वम् अस्ति इति कृत्वा सुवर्णं न तैजसं, सुवर्णं पार्थिवम्. अन्यत् किमपि वदति गुरुत्वा नाम गुरुत्वं तेजसी न स्वीक्रियते. गुरुत्वनामकः गुणः तेजसी न स्वीक्रियते. तेजसी गुरुत्वं नास्ति, परन्तु सुवर्णं यदि हस्ते सुवर्णस्य उन्नयनं कुर्मः चेत् तत्र गुरुत्वं साक्षात् अनुमीयते. गुरुत्वम् अस्ति इति अनुभवः अस्माकं भवति. अनुभवः नाम तत्र अनुमानं भवति. तर्हि गुरुत्वम् अस्ति इति कृत्वा नितरां सुवर्णं तैजसं न भवति, पार्थिवमेव. पीतत्वम् अस्ति इति, गुरुत्वम् अस्ति इति कृत्वा यथा हरिद्रा नाम किं टर्मेरिक् भवति वा इति चिन्तयामि. तर्हि हरिद्रा तत्रापि पीतत्वम् अस्ति, गुरुत्वम् अस्ति, पार्थिवम् अस्ति. यथा हरिद्रा पार्थिवम् अस्ति, यथा महानसे, यथा महानसं तत्र उदाहरणं दत्तमासीत्, यत्र यत्र पीतत्वं गुरुत्वं च तत्र तत्र पार्थिवत्वं नाम पृथिवीजातिमत्वम् अथवा तथैव पृथिवीजातिमत्वम् इति वदामः, नाम तत् पार्थिवं द्रव्यम् इति अनुमानस्य स्वरूपं भवति इति चेत्, इति पूर्वपक्षी वदति चेत् सिद्धान्ति किं वदति इत्युक्ते न भोः तादृशी परिस्थितिः नास्ति, न किमर्थं नास्ति इत्युक्ते अत्यन्तानवसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते द्रवत्वनाश अदर्शने असति प्रतिबन्धके पार्थिवद्रवत्वनाशादिसंयोगयोः कार्यकारणभावावधारणा। इदानीं किम् इति तावन्मात्रं किञ्चिदिव पश्यामः, अग्रिमे सप्ताहे पुनः सप्रपञ्चं पश्यामः तत्सर्वं किं किमस्ति। अत्र दीपिकाग्रन्थे या युक्तिः प्रदर्शिता सा युक्तिः अपि सम्यक् न भाति। तत्र तत्र प्रथमसरणि नाम तत्र बालानां कृते एषः ग्रन्थः रचितः इति कृत्वा एतादृशी युक्तिः अत्र उपस्थापिता, परन्तु तत्र सिद्धान्तमुक्तावल्यादि ग्रन्थेषु तु भिन्नरूपेण एतत् चिन्तनं कृतं। परन्तु भवतु नाम, अत्र यत्किमपि प्रदर्शितं तदेव आदृत्य वयम् अग्रेसरामः। किं वदति इत्युक्ते न तत् तादृशी पार्थिवं न सुवर्णं न पार्थिवं, कुतः इति तत्र कार्यकारणभावः अस्माभिः ज्ञायते। कीदृशः कार्यकारणभावः ज्ञायते इत्युक्ते असति प्रतिबन्धके किं वदति, असति प्रतिबन्धके पार्थिवद्रवत्वनाश अग्निसंयोगयोः कार्यकारणभाव अवधारणा। नाम नाम तत्र अत्यन्त अनलसंयोग नाम अग्निसंयोगस्य पार्थिवद्रवत्वनाशस्य कार्यकारणभावः वर्तते। नाम अनलसंयोग अग्निसंयोगः कारणं, पार्थिवद्रवत्वनाशः कार्यं। परन्तु सर्वदैव तत्र सङ्कोचः करणीयः, परन्तु सर्वदैव तादृशी परिस्थितिः नास्ति। किमर्थं तादृशी परिस्थितिः सर्वतैव नास्ति इत्युक्ते वयं पश्यामः अत्यन्त अनलसंयोगे सति नाम तत्र तीव्रतर अनलसंयोगः। अत्यन्त अनलसंयोगः नाम किं, तत्र मन्द अनलसंयोगः न भवेत्, मन्द अनलसंयोगेन द्रवत्वनाशः न भवति, तीव्र अनलसंयोगः आवश्यकः। अतः तदेव अत्र उक्तम् अत्यन्त नाम तीव्र अत्यन्त अनलसंयोगे सति घृतातो द्रवत्वनाशदर्शनेन। तत्र घृतमस्ति चेत् अत्यन्त अनलसंयोगे किं भवति, सर्वमपि विनष्टं भवति, केवलं भस्मिसात् भवति, तत्र द्रवत्वम् अपगच्छति एव, द्रवत्वं नैव तिष्ठति तत्र घृतादौ। अत्यन्त अनलसंयोग घृतादौ द्रवत्वनाशदर्शनेन अत्यन्त यत्र यत्र अत्यन्तानलसंयोगः तत्र 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 द्रवत्वनाशदर्शनं द्रवत्व घृतादौ तत्र पृथिवीद्रव्यद्रवत्वनाशदर्शनं। परन्तु सर्वत्र तथा न भवति, यदि जलमध्यस्थ यदि घृतं जलस्य मध्ये घृतं स्थापयामः अथवा घृतं जलस्य उपरि स्थापयामः चेत् अत्यन्त अनलसंयोगं कुर्मः चेदपि घृतस्य द्रवत्वं न नश्यत्येव। तर्हि तत्र किमर्थं न नश्यति इत्युक्ते तत्र प्रतिबन्धकम् अस्ति, प्रतिबन्धकः अस्ति। कः प्रतिबन्धकः इत्युक्ते अत्र प्रतिबन्धकः जलमेव, जलं प्रतिबन्धकरूपेण अस्ति इति कृत्वा एव तत्र पृथिवीद्रव्यस्य घृतस्य द्रवत्वनाशः न भवति। तर्हि अत्र कार्यकारणभावे सङ्कोचः करणीयः, सर्वथैव तत्र द्रवत्वस्य नाशः न भवति, असति प्रतिबन्धके एव भवति। यदि प्रतिबन्धकरहितवेलायां प्रतिबन्धकरहितदशायाम् असति प्रतिबन्धके द्वयोः अत्यन्तानवसंयोगः पृथिवीद्रव्यद्रवत्वनाशयोः कार्यकारणभावः वर्तते इति एतावन्मात्र अद्य पश्यामः। अग्रिमे सप्ताहे पुनः सप्रपञ्चं सर्वमपि पुनः पश्यामः, कथं वा सुवर्णस्य तैजसत्वं साधितम् इति सर्वं सप्रपञ्चं पश्यामः। अस्तु, इदानीं समयोऽपि जातः, अत्र विरमामः। नमस्कारः, धन्यवादः।
नमस्कारः महोदय, धन्यवादः।